ओम श्री शिव महापुराणम रुद्र संहिता सृष्टिखंडम ओन्पदावद अध्यायम आरंभ। ओम ब्रह्मोवाच अथाकर्ण्य नुतिम विष्णुकृतां स्वस्य महेश्वरः प्रादर्बभूव सुप्रीतः सवामं करुणानिधिः पंचवक्त्रस्त्रिनयनो भालचंद्रो जटाधरः गौरवर्णो विशालाक्षो भस्मोद्धूलित विग्रहः दशबाहुर्नीलगल सर्वाभरणभूषितः सर्वांगसुंदरो भस्मस्त्रिपुण्ड्रांकितमस्तकः तं दृष्ट्वा तादृशं देवं सवामं परमेश्वरं तुष्टाव पुनरिष्टाभिर्वाग्भिर्विष्णुर्मया सह निगमं श्वासरूपेण ददौ तस्मै ततो हरः विष्णवे च प्रसन्नात्मा महेशः करुणाकरः ततो ज्ञानमदात् तस्मै हरये परमात्मने परमात्मा पुनर्मह्यं दत्तवान् कृपया मुने सम्प्राप्य निगमं विष्णुः पप्रच्छ पुनरेव तं कृतार्थः साञ्जलिर्नत्वा मया सह महेश्वरं विष्णुरुवाच कथं च तुष्यसे देव मया पूज्य कथं प्रभो कथं ध्यानं प्रकर्तव्यं कथं व्रजसि कश्पश्यतां किं कर्तव्यं महादेव ह्यावाभ्यां तव शासनात् सदा सदाज्ञापयनौ प्रीत्यर्थे कुरु शङ्कर एतत्सर्वं महाराज कृपां कृत्वा वयोः प्रभो कथनीयं तथान्यच्च विज्ञाय स्वानुगौ शिव ब्रह्मोवाच इत्येतद्वचनं श्रुत्वा प्रसन्नो भगवान् हरः उवाच वचनं प्रीत्या सुप्रसन्नः कृपानिधिः श्रीशिव उवाच भक्त्या च भवतोर्नूनं प्रीतोऽहं सुरसत्तमौ पश्यतं मां महादेवं भयं सर्वं विमुञ्चताम् अमलिङ्गं सदा पूज्यं ध्येयं चैतादृशं मम इदानीं दृश्यते यद्वत्तथा कार्यं प्रयत्नतः पूजितो लिङ्गरूपेण प्रसन्नो विविधं फलं दास्यामि सर्वलोकेभ्यो मनोभीष्टान्यनेकजः यदा दुःखं भवेत्तत्र युवयोऽसुरसत्तमौ पूजिते मम लिङ्गे च तदा स्याद्दुःखनाशनं युवां प्रसूतौ प्रकृतेर्मदीयाया महाबलौ गात्राभ्यां सव्यसव्याभ्यां मम सर्वेश्वरस्य हि अयं मे दक्षिणात् पार्श्वात् ब्रह्मा लोकपितामहः वामपार्श्वाच्च विष्णुस्त्वं समुत्पन्नः परात्मनः प्रीतोऽहं युवयोः सम्यग्वरं दद्याम्यभेप्सितं मयि भक्तिर्दृढा भूयादिवयोरभ्यनुज्ञया पार्थिवीं चैव मन्मूर्तिं विधाय कुरुतं युवां सेवां च विविधां प्राज्ञौ कृत्वा सुखमवाप्स्यथ ब्रह्मन् सृष्टिं कुरु त्वं हि मदाज्ञापरिपालकः वत्स वत्स हरे त्वं च पालयैवं चराचरं ब्रह्मोवाच इत्युक्त्वा नो प्रभुरताभ्यां पूजाविधिमदाशुभां येनैव पूजितः शम्भुः फलं यच्छत्यनेकजः ब्रह्मोवाच इत्याकर्ण्यवचः शम्भोर्मया च सहितो हरिः प्रत्युवाच महेशानं प्रणिपत्य कृताञ्जलिः विष्णुरुवाच यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ भक्तिर्भवद नौ नित्यं त्वयि चाव्यभिचारिणी त्वमप्यवतरत्स्वाद्यलीलया निर्गुणोभिः सहायं कुरु नौ तात त्वं परः परमेश्वरः आवयोर्देवदेवेश विवादमपि शोभनम् इहागतो भवान्यस्माद्विवाद शमनायनौ ब्रह्मोवाच तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम् प्रणिपत्य स्थितं मूर्ध्ना कृताञ्जलिपुटः स्वयं श्रीमहेश उवाच प्रलयस्थिति सर्गानां कर्ताहं सगुणो गुणः परब्रह्म निर्विकारी सच्चिदानन्दलक्षणः त्रिया भिन्नोऽयहं विष्णो ब्रह्म विष्णुहराख्यया सर्गरक्षालय गुणैर्निष्कलोऽहं सदा हरे सुतोऽहं यत्त्वया विष्णो ब्रह्म नामेऽवतारणे प्रार्थनां तां करिष्यामि सत्यां यद्भक्तवत्सलः मद्रूपं परमं ब्रह्मन् ईदृशं भवदङ्गतः प्रकटी भविता लोके नाम्ना रुद्रः प्रकीर्तितः मदंशात् तस्य सामर्थ्यं न्यूनं नैव भविष्यति योऽहं सोऽहं न भेदोऽस्ति पूजाविधिविधानतः यथा जज्योतिषः सङ्गात् जलादेः स्पर्शदा न वै तथा ममागुणस्यापि संयोगाद्बन्धनं नहि शिवरूपं ममैतञ्च रुद्रोऽपि शिववत्तदा न तत्र परभेदो वै कर्तव्यश्च महामुने वस्तुतो हेकरूपं हि द्विधा भिन्नं जगत्युत अतो न भेदा विज्ञेयः शिवे रुद्रे कदाचन सुवर्णस्य तथैकस्य वस्तुत्वं नैव गच्छति अलं कृति कृते देवनामभेदो न वस्तुतः त तथैकस्य मृदो भेदो नानापात्रे न वस्तुतः कारणस्यैव कार्ये च सन्निधानम् निदर्शनम् ज्ञातव्यम् बुधवर्यैश्च निर्मलज्ञानिभिः सुरौ एवम् ज्ञात्वा भवद्भ्याम् तु न दृश्यम् भेदकारणम् वस्तुवत् सर्वदृश्यम् च शिवरूपम् मतम् मम अहम् भवानजश्चैव रुद्रोयोऽयम् भविष्यति एकरूपानभेदस्तु भेदे वै बन्धनम् भवेत् तथापि च मदीयम् हि शिवरूपम् सनातनम् मूलीभूतम् सदोक्तम् च सत्यज्ञानमनन्तकम् एवम् ज्ञात्वा सदा ध्येयम् मनसा चैव तत्त्वतः श्रूयताम् चैव भो ब्रह्मन् यद्गोप्यम् कथ्यते मया भवन्तौ प्रकृतेर्यातौ नायम् वै प्रकृतेः पुनः मदाज्ञा जायते तत्र ब्रह्मणो भृगुटेरहम् गुणेष्वपि यथा प्रोक्तस्तामसः प्रकृतो हरः वैकारिकश्च विज्ञेयो योऽहम् कारबुदाहृदः नामतो वस्तुतो नैव तामसः परिचक्ष्यते एतस्मात् कारणात् ब्रह्मन् करणीयमिदम् त्वया सृष्टिकर्ता भव ब्रह्मन् सृष्टेश्च पालको हरिः मदीयश्च तथांशो यो लयकर्ता भविष्यति इयम् या प्रकृतिर्देवी ह्युमाख्या परमेश्वरी तस्या सुशक्तिर् वाग्देवी ब्रह्मानम् सा भजिष्यति अन्या शक्तिः पुनस्तत्र प्रकृतेः सम्भविष्यति समाश्रयिष्यति विष्णुम् लक्ष्मीरूपेण सा तदा पुनश्च काली नाम्ना सा मदंशम् प्राप्स्यति ध्रुवम् ज्योतिरूपेण सा तत्र कार्यार्थे सम्भविष्यति एवम् देव्या तथा प्रोक्ता शक्तयः परमा शुभाः सृष्टिस्थितिलयानाम् हि कार्यम् तासाम् क्रमा ध्रुवम् एतस्याः प्रकृतेरंशा मत्प्रियाया सुरोत्तम त्वम् च लक्ष्मीमुपाश्रित्य कार्यम् कर्तुमिहार्हसि ब्रह्मम् त्वम् च गिराम् देवीम् प्रकृत्यम् शामवाप्य च सृष्टिकार्यम् हृदा कर्तुम् मन्निदेशादिहार्हसि अहम् कालीम् समाश्रित्य मत्प्रियांशाम् परात्पराम् रुद्ररूपेण प्रलयम् करिष्ये कार्यमुत्तमम् चतुर्वर्णमयम् लोकम् तत्सर्वैराश्रमैर्ध्रुवम् तदन्यैर्विविधैः कार्यैः कृत्वा सुखमवाप्स्यतः ज्ञानविज्ञानसंयुक्तो लोकानाम् हितकारकः मुक्तिदोऽत्र भवानद्य भवलोके मदाज्ञयाम् मद्दर्शने फलम् यद्वत्तदेव तव दर्शने इति दत्तो वरस्तेऽद्य सत्यम् सत्यम् न संशयः ममैव हृदये विष्णुर्विष्णोश्च हृदये ह्यहम् उभयोरन्तरम् यो वै न जानाति मनो मम वामाङ्गजो मम हरिर्दक्षिणाङ्गोद्भवो विधिः महाप्रलयकृद्रुद्रो विश्वात्मा हृदयोद्भवः त्रिधा भिन्नोऽयहम् विष्णो ब्रह्म विष्णुभवाख्यया सर्ग रक्षालयकरस्त्रिगुणैर्रज आदिभिः गुणभिन्नः शिवः साक्षात्कृते पुरुषात्परः परम् ब्रह्माद्वयो नित्यो अनन्तः पूर्णो निरञ्जनः अन्तस्तमो बहिःसत्त्वस्त्रिजगत्पालको हरिः अन्तःसत्त्वस्तमो बाह्यस्त्रिजगद्लयकृद्धरः अन्तर्बहिर्रजाश्चैव त्रिजगत्सृष्टिकृद्विधिः एवम् गुणा त्रिदेवेषु गुणभिन्नः शिवः स्मृतः विष्णो सृष्टिकरम् प्रीत्या पालयैनम् पितामहम् सम्पूज्यस्त्रिषु लोकेषु भविष्यसि पदाज्ञया तव सेव्यो विधेश्चापि रुद्र एव भविष्यति शिवपूर्णावतारो हि त्रिजगद्लयकारकः पाद्मे भविष्यति सुतः कल्पे तव पितामह तदा द्रक्ष्यसि माम् चैव सोऽपि द्रक्ष्यति पद्मजः एवमुक्त्वा महेशानः कृपाम् कृत्वा तुलाम् हरः पुनः प्रोवाच सुप्रीत्या विष्णुम् सर्वेश्वरः प्रभुः इति श्रीशिवमहापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथमखण्डे सृष्ट्युपाख्याने शिवतत्त्ववर्णनो नाम नवमोऽध्यायः ஓம் ஸ்ரீ சிவமஹாபுராணத்தில் ருத்ரசம்ஹிதை சிருஷ்டிகண்டத்தில் 9வது அத்தியாயம் பூர்த்தி ஓம்.